अथ गणेशाष्टकम् सर्वे ऊचुः यतोऽनन्तशक्तेरनन्ताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते यतो भाति सर्वं त्रिधा वेद भिन्नं सदा तं गणेशं नमामो भजाम यतश्चाविरासि जगत्सर्वमेतत्तथाब्जासनो विश्वगो विश्वगोक्ता तथेन्द्रादयो देवसङ्घा मनुष्या सदा तं गणेशं नमामो भजाम यतो वह्निभानुभवो भूर्जलं च यतस्सागराश्चन्द्रमा व्योमवायु यतस्थावरा जङ्गमा वृक्षसङ्घा सदा तं गणेशं नमामो भजाम यतो दानवा किन्नरा यक्षसङ्घा यतश्चारणा वारणाश्वापदाश्च यत पक्षकीटा यतो विरुधश्च सदा तं गणेशं नमामो भजाम यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यत सम्पदो भक्तिसन्तोषिका स्युः यतो विघ्ननाशो यतः कार्यसिद्धि सदा तं गणेशं नमामो भजाम यत पुत्रसम्पद्यतो वाञ्छितार्थो यतो भक्तविघ्नास्तथा नेकरूपा यत शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजाम यतोऽनन्तशक्तिः सशेषो बभूव धराधारणे नेकरूपे च शक्त यतो नेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजाम यतो वेदवाचोति कुण्ठा मनोभिः सदा नेति नेतीति यत्ता क्रीणन्ति परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजाम श्रीगणेश उवाच पुनरुचे गणाधीश स्तोत्रमेतत् पठेन्नरः त्रिसन्ध्यं त्रिदिनं तस्य सर्वं कार्यं भविष्यति योजपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् अष्टवारं चतुर्थ्यां तु सोष्टसिद्धिरवाप्नुयात् यः पठेन्मासमात्रं तु दशवारं दिने दिने समोचयेद्बन्धगतं राजवध्यं न संशयः विद्या कामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् वाञ्छितान् लभते सर्वम् एकविंशतिवारतः यो जपेत्परया भक्त्या गजाननपरो नरः एवमुक्त्वा ततो देवश्चान्तर्धानं गतः प्रभुः इति श्रीगणेशपुराणे गणेशाष्टकं सम्पूर्णम्।